अथ चतुर्थोऽध्याय नाभाग और अम्बरीश की कथा। श्री शुक उवाच नाभागो नभगापत्यम यम ततम भ्रातरः कविम् यविष्टम् व्यभजन्दायम् ब्रह्मचारिणमागतम् भ्रातरो भांगत किम् मह्यम् भजाम पितरम् तव त्वाम् ममार्जास्तता भाङ्क्षुर्मा पुत्रक तदादृथाः इमे अंगिरसः सत्रम् आसतेद्य सुमेधसः षष्ठम् षष्ठमुपेत्याह कवे मुह्यन्ति कर्मणि तांस्त्वम् संशय सुप्ते द्वे वैश्वदेवे महात्मनः ते स्वर्यन्तो धनम् शत्र परिशेषितमात्मनः दास्यन्ति तेऽथ तान् गच्छ तथा स कृतवान् यथा तस्मै दत्त्वा ययुः स्वर्गम् ते सत्र परिशेषितम् तम् कश्चित् स्वीकरिष्यन्तम् पुरुषः कृष्णदर्शनः उवाचोत्तरतोऽभ्यत्य ममेदम् वास्तुकम् वसु ममेदम् ऋषिभिर्दत्तम् इति तर्हि स्म मानवः स्यान्नौ ते पितरि प्रश्नः पृष्टवान् पितरम् तथा यज्ञवास्तुगतम् सर्वम् उच्छिष्टम् ऋषयः क्वचित् चक्रुर्विभागम् रुद्राय स देवः सर्वमर्हति नभागस्तम् प्रणम्याः तवेश किल वास्तुकम् इत्याह मे पिता ब्रह्मन् शिरसा त्वाम् प्रसादये यत्ते पिता वदद्धर्मम् त्वम् च सत्यम् प्रभाससे ददामि ते मन्त्रदृशे ज्ञानम् ब्रह्म सनातनम् गृहाण द्रविणम् दत्तम् मत्सत्रे परिशेषितम् इत्युक्त्वान्तर्हितो रुद्रो भगवान् सत्यवत्सलः ययेतत् संस्मरेत् प्रातः सायम् च सुसमाहितः कविर्भवति मन्त्रज्ञो गतिम् चैव तथात्मनः नाभागादम्बरीशो भूल्महाभागवतः कृति न स्पृशद्ब्रह्मशापोऽपि यम् न प्रतिहतः क्वचित् राजोवाच भगवन् श्रोतुमिच्छामि राजर्षिस्तस्य धीमतः न प्राभुज्यत्र निर्मुक्तो ब्रह्मदण्डो दुरत्ययः। श्रीशुक उवाच अम्बरीशो महाभागः सप्तद्वीपवतीम् महीम् अव्ययाम् च श्रियम् लब्ध्वा विभवम् चातुलम् भुवि मेनेति दुर्लभम् पुंसाम् सर्वम् तत्स्वप्न संस्तुतम् विद्वान् विभव निर्माणम् तमो विशति यत्पुमान् वासुदेवे भगवति तद्भक्तेषु च साधुषु प्राप्तो भावम् परम् विश्वम् जेनेदम् लोष्टवत् स्मृतम् स वै मनः कृष्णपदारविन्दयोर्वचांसि वैकुण्ठगुणानुवर्णने करो हरिर्मन्दिरमार्जनादिषु श्रुतिम् चकाराचित सत्कथोदये मुकुन्दलिङ्गालय दर्शने दृशौ तद्भृत्य गात्र स्पर्शेऽङ्गसङ्गमम् घ्राणम् च तत्पाद सरोज सौरभे श्रीमत्तुलस्यारसनाम् तदर्पिते पादौ हरेः क्षेत्रपदानुसर्पणे शिरो हृषीकेशपदाभिबन्धने कामम् च दास्येन तु कामकाम्यया यथोत्तमश्लोकजनाशया रतिः एवम् सदा कर्मकलापमात्मनः परेधि यज्ञे भगवत्यधोक्षजे सर्वात्मभावम् विदधन् महीमिमाम् तन्निष्ठ विप्राभिहित शशासः ईजे स्वमेधैरधिजज्ञमीश्वरम् महाविभूत्योपचिताङ्गदक्षिणैः ततैर्वसिष्ठासितगौतमादिभिर्धन्वन्यभिश्रोतमसौ सरस्वतीम् जस्य क्रतुषु गीर्वाणैः सदस्या ऋत्विजोजनः तुल्यरूपाश्च निमिषा व्यदृश्यन्त सुवाससा स्वर्गो न प्रार्थितो यस्य मनुजैरमरप्रियः शृण्वद्भिरुपगायद्भिरुत्तमश्लोकचेष्टितम् समर्थयन्ति तान् कामा स्वराज्यपरिभावितः दुर्लभानापि सिद्धानाम् मुकुन्दम् हृदि पश्यतः स इत्थम् भक्तियोगेन तपोयुक्तेन पार्थिवः स्वधर्मेण हरिम् प्रीणन् सङ्गान् सर्वाञ्छनैर्जहौ गृहेषु दारेषु सुतेषु बन्धुषु द्वीपोतमश्यन्दनवाजिपत्तिषु अक्षय्यरत्नाभरणायुधादिषु अनन्तकोशेषु अकरोन्मसन्मतिम् तस्मा अदाधरिश्चक्रम प्रत्यनीक भयावहम एकांत भक्ति भावेन प्रीतो भृत्याभिलक्षणम आरिराधेश कृष्णम महिष्या तुल्य शीलया युक्त सांवत्सरम वीरो दधार द्वादशी व्रतम व्रतांते कार्तिके मासे त्रिरात्रम समपोषितः स्नातः कदाचित् कालिंद्याम हरिम मधुबनेर्चयत् महाभिषेक विधिना सर्वोपस्कर संपदा अभिषिच्याम्बरा कल्पय गंधमाल्यर्हणादिभि तद्गतांतर्भावेन पूजयामास केशवम् ब्राह्मणांश्च यथा भागान् सिद्धार्थानपि भक्तितः गवाम रूपं विषाणेन रूप्यांघ्रीणां सुवाससाम् पयः शीलवयो रूप वत्सोपस्कर संपदाम् प्राहिणोत्साधु विप्रेभ्यो गृहेषु निर्बुदा निषद् भोजयित्वा द्विजानग्रे स्वाद्वन्नम् गुणवत्तमम् लब्धकामैरनुज्ञातः पारणायोपचक्रमे तस्य तर्ह्यतिथि साक्षात् दुर्वासा भगवान् भूत् तमानर्चातिथिम् भूयः प्रत्युत्थानासनार्हणैः ययाचे व्यवहाराय पादमूलमुपागतः प्रतिनन्दशतद्याच्याम् कर्तुम् आवश्यकम् गतः निममज्ज बृहध्यायन् कालिन्देः सलिले शुभे मुहूर्तार्धावशिष्टायाम् द्वादश्याम् पारणम् प्रति चिन्तयामास धर्मज्ञो द्विजस्तद्धर्मसङ्कटे ब्राह्मणातिक्रमे दोषो द्वादश्याम् जतपारणे यत्कृत्वा साधु मे भूयात् अधर्मो वा न माम् स्पृशेत् अम्भसा केवले नाथ करिष्ये व्रतपारणम् प्राहुरभक्षणम् विप्राह्यसितम् नाशितम् च तत् इत्यपः प्राश्य राजर्षिर्चिन्तयन् मनसाचितम् प्रत्यचष्ट कुरु श्रेष्ठ द्विजागमनमेव सः दुर्वासा यमुनाकूलात् कृतावश्यक आगतः राज्ञाभिनन्दितस्तस्य बुधे चेष्टितम् धिया मन्युना प्रचलद् गात्रो भ्रुकुटीकुटिलाननः भुभुक्षितश्च सुतराम् कृताञ्जलिमभाषत अहो अस्य नृशंसस्य श्रियोन्मत्तस्य पश्यत धर्म व्यतिक्रम विष्णोरभक्तस्येष मानिनः यो मामतिथिमायातम् आतिथ्येन निमन्त्र्य च अदत्त्वा भुक्तवांस्तस्य सद्यस्ते दर्शये फलम् एवम् ब्रुवाण उत्कृत्य जटाम् रोषविदीपितः तया स निर्मे तस्मै कृत्याम् कालानलोपमाम् तामा पतन्तीम् ज्वलतीम् असिहस्ताम् पदाभुवम् वेपयन्तीम् समुद्वीक्ष्य न चालपदा नृप प्राग्दिष्टम् भीतिरक्षायाम् पुरुषेण महात्मना ददाह कृत्याम् ताम् चक्रम् क्रुद्धा हिमेव पावकः तदभिद्रवद् उद्वीक्ष्य स्वप्रयासम् च निष्फलम् दुर्वासा दुद्रुवे भीतो दिक्षु प्राणपरीप्सया तमन्वधावद् भगवत् रथाङ्गम् दावाग्निरुद्धूत शिखो यथा हिम् तथानुसक्तम् निरीक्षमाण गुहाम् बिभिक्षु प्रससार मेरोः दिशो नभक्ष्माम् विवरान् समुद्रान् लोकान् सपालान् त्रिदिवम् गतः स यतो यतो धावति तत्र तत्र सुदर्शनम् दुष्प्रशहम् ददर्श अलब्धनाथ स यदा कुतश्चित् सन्त्रस्तचित्तो रणमेषमाणः देवम् विरिञ्चम् समगाद्विधातस्त्राह्यात्मजोने अजित तेजसो माम् ब्रह्मवाच स्थानम् मदीयम् सह विश्वमेतत् क्रीडावसाने द्विपरार्धसङ्गे भ्रूभङ्गमात्रेण हि सन्दिधक्षः कालात्मनो यस्य तिरो भविष्यति अहम् भवो दक्ष भृगु प्रधानः प्रजेश भूतेश सुरेश मुख्यः सर्वे वयम् जन्यमम् प्रपन्ना मूर्ध्न्यर्पितम् लोकहितम् वहामहम् प्रत्याख्यातो विरिञ्चेन विष्णुचक्रोपतापितः दुर्वासः शरणम् जातः सर्वम् कैलासवासिनम् श्रीरुद्र उवाच वयम् न तात प्रभवाम भुम्नि जस्मिन् परेण्येऽप्यजीवकोशः भवन्ति काले न भवन्ति हिदृशः सहस्रशो यत्र वयम् भ्रमामहम् अहम् सनत्कुमारश्च नारदो भगवानजः कपिलोपान्तरतमो देवलो धर्म आसुरिः मरीचिप्रमुखाश्चान्ये सिद्धेशः पारदर्शना विदाम्ना वयम् सर्वे जन्मायाम् माययावृतः तस्य विश्वेश्वरस्येदम् शस्त्रम् दुर्विषहम् हिनः तमेव शरणम् जाहि हरिस्ते संविधास्यति ततो निराशो दुर्वासः पदम् भगवतो ययौ वैकुण्ठाख्यम् जदध्यास्ते श्रीनिवासः श्रियासः सन्दह्यमाने अजितशस्त्रवहनिना तत्पादमूले पतितः स मे पथुः आहाच्युतानन्तसदीप्सित प्रभो कृतागसम् मावहि विश्वभावना अजानता ते परमानुभावम् कृतम् मयाघम् भवतः प्रियाणाम् विधेहि तस्यापचितिम् विधातस्मुच्येत जन्नामुदिते नारकोऽपि श्री भगवान उवाच अहम् भक्तपराधीनो यः स्वतन्त्र इव द्विज साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रियः नाहमात्मानमाशासे मद्भक्तैः साधुभिर्विना श्रियम् चात्यन्तिकीम् ब्रह्मन् जेषाम् गतिरहम् परा ये दारागारपुत्राप्तान् प्राणान् वित्तमिमम् परम् हित्वा माम् शरणम् जातः कथम् तांस्त्यक्तुमुत्सहे मयि निर्बद्धहृदया साधवः समदर्शनः वशीकुर्वन्ति माम् भक्त्या सत्स्त्रियः सत्पतिम् यथा मत्सेवया प्रतीतम् च सालोक्यादिचतुष्टयम् निच्छन्ति सेवया पूर्णा कुतोऽन्यत्कालविद्युतम् साधवो हृदयम् मह्यम् साधूनाम् हृदयम् त्वहम् मदन्यत्ते न जानन्ति नाहम् तेभ्यो मनागपि उपायम् कथयिष्यामि तव विप्रशृणुस्वतत् अयम् यात्माभिचारस्ते जतस्तम् जातु वै भवान् साधुषु प्रहितम् तेजः प्रहर्तुः कुरुते शिवम् तपो विद्या च विप्राणाम् निःश्रेयस्करे उभे त एव दुर्विनीतस्य कल्पेते कतुरन्यथा ब्रह्मंस्तद्गच्छ भद्रम् ते नाभागतनयम् नृपम् समापय महाभागम् ततः शान्तिर्भविष्यति इति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् नवमस्कन्धे अम्बरीश्चरिते चतुर्थोऽध्यायः।